द्रौपद्या पाण्डुतनयाः पतिदेवर भावुकाः न देवरो धर्मराजः सहदेवो न भावुकः